गोविंद केशव जनार्दन दीन बंधो राजीव नेत्र करुणां परिपूर्ण सिंधो जातं विभो जगति मंगलं सुप्रभातं नीलाद्रिनाथ नीलाद्रिनाथ जगदीश जहि निद्रा घंटामृदंग पहामी तंबाद्य वृंदे गीतेस्तथा स्तुतिभेतरत्रो दिवोधयामः तो सेवकेति निविधायुनि देहि दास्यं नीलाद्रिनाथ नीलाद्रिनाथ जगदीश जहि हि निद्रा ब्रह्मादिदेव गण पूजित पाद पद्मम् वैकुंठनाथ पुरुषोत्तम मुक्ति साधमम् लक्ष्मीपते पतितपा वन पद्मनाभो नीलाद्रिनाथ नीलाद्रिनाथ जगदीश जहि हि निद्रा विश्वभावस्थिति विनाश विधान हेतु संसार सागर समुत्तराणी से तो उतिष्ट हे वरद जागृहि पाहि भृत्यान् नीलाद्रिनाथ नीलाद्रिनाथ जगदीश जहि निद्रा मादकी नलिन चक्रक शंखपाणि भक्रानुकंपित सनातन देव देवम् कैवल्यदायक हरे त्रिजगन्निवास नीलाद्रिनाथ नीलाद्रिनाथ जगदीश जहि निद्रा श्रीवत्सकौस्तव सुशोभितश्चरोज केयूरहारमणिकुण्डलमणितताङ्ग श्रीभूकरावजपुरी पूजित वासुदेवो नीलाद्रिनाथ नीलाद्रिनाथ जगदीश जहि निद्रा हेमश्चकच्छपवराह नृसिंहरूप ब्रह्मांडनाथ निजतात्वगुणानुवक्तः वेदांतवेद्य निरवद्य गुणात्रिराम नीलाद्रिनाथ नीलाद्रिनाथ जगदीश जहि निद्रा हे राम कृष्ण परम प्रहणर्तार्तिनाशिन हे नंद नंदन मोहदधीतिरवासिन तिष्ठ पश्य रयनि भजते रवासना नीलाद्रिनाथ नीलाद्रिनाथ जगदीश जहिहि निद्रा नीलाद्रिनाथ जगदीश जहाहि निद्रा नीलाद्रिनाथ जगदीश जहिहि निद्रा जद्दारु ब्रह्ममूर्ति प्रणवतनुधरं सर्ववेदान्तसारं भक्तानां कल्पवृक्षं भवजलतरणी सर्वतत्त्वानुतत्त्वं योगीनां योगीनां हंसतत्त्वं हरिहरनिमितं श्रीपतिर्वैष्णवानां शैवानां भैरवाख्यं पशुपतिरितिः जासाक्ततत्त्वो च शक्तिः बौधानां बुद्धरूपं वृषभजतिवरं जैन सिद्धान्तसारं शादेवं पातु नित्यं कलिकुलगुहरं श्रीनीलशैलाधिनाथं पञ्चदशाध्यायः श्रीपुरुषोत्तमो योग श्रीभगवान् उवाच ओरद्धो मूलमध्यशाख मस्वस्तं प्राहुरव्ययं छन्दांसि यस्य पर्णानि जस्तं वेदः सवेदवित् अथाश्वरधो प्रसूतां तस्य शाखां गुणा प्रवृधां विषयो प्रवाळः अथाश्च मूलाः ननु शन्ततानि कर्मानुबन्धीनि मनुष्यलोके रूपमस्येह्य ततोपलभ्यते नन्तो न चार्दी न च सम्प्रतिष्ठा स्वास्तमेनौ सविरूढमूलम् असङ्गशस्त्रेण दृढेन छित्त्वा ततः पदं तत् परिमार्गितव्यं यस्मिन् गतानो नृवतन्ति भूयः तमेव चाद्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसूता पुराणि निर्माणमोहां जितसङ्गदोषाम् अध्यात्मनित्यां विनिवृतकामः नैर्विमुक्तां सुखदुःखसङ्गैः गर्च्छन्त्यमूढां पदमव्ययत् न तदभाषयते सूर्यो न शशाङ्को न पावकः यद्गत्वानं निवर्तन्ते तद्धामं परमं मम ममैवांसो जीवलोके जीवभूतः सनातनः मनः षष्ठानिन्द्रियाणि प्रकृतिस्तानि कर्षति शरीरं यदवाप्नोति यच्चापि उतः क्रामितेश्वरः गृहीत्वे तानि संजाति वायुर्गन्धान्निवासया शुक्रं चक्षोर्स्परशनं च रशनं घ्राणमेव च अधिष्ठाय मनश्चायं विषयानुपसेवते उत्क्रामन्तः स्थितं वापि भुञ्जाना वा गुणान्युतं विमूढानानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः यतन्तो योगिनश्चैनः पश्यन्त्यात्मनि अवस्थितं जतन्तो प्रकृतात्मान नैन पश्यन्त्यचेतसः जदादित्यं गतो तेजो जगद्भासो यतेऽखिलं जचन्द्रोमसि जच्चाग्नौ तत्तेजं विद्धि मामकम् कामाविश्यश्च भूतानि धारयामह्यमोजसाम् पुष्पामि चौषधी शरवः सोमः भूत्वा रसात्मकः अहं वैश्वानरं भूत्वा प्राणिनां देहमाश्रितः प्राणोपानो समाजुक्तः पञ्चामन्नः चतुर्विधम् श्रवाश्य चाहं उदिशन्न विष्णो मतः श्रुतिज्ञानः पोहनं च वेदैश्च सर्वैः रहमेव वेद्यो वेदान्तकृतवे विदे वेद चाहं वावीमं पुरुषौ लोके क्षरश्चां क्षरहेव चो क्षरः सर्वाणि भूतानि कुटस्थोऽक्षर उच्यते उत्तमः पुरुषोऽस्तन्यः परमात्मं तु दारुतः जो लोकं त्रयमाविश्य विभरतो व्ययैश्वरः यस्मात्क्षरो मतीतोऽहं अक्षरादपि चोत्तमः अतोऽस्मि लोकवेदे च प्रथितः पुरुषोत्तमः जो मामेवं वशं मूढो जानाति पुरुषोत्तमं स सर्वविद् भयन्तीम सर्वभावेन भारत इति गूह्योत्तमं शास्त्रं मीदं मुक्तं मया नघ एतद् बुद्ध्वा बुद्धिमान स्यात् कृत्यकृत्यश्च भारतः कृष्णाय वासुदेवाय देवकी नन्दनाय च नन्दगोपकुमाराय गोविन्दाय नमो नमः सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामया सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् हरि ओम् शान्तिः ॐ शान्तिः ॐ शान्तिः।